आम् अर्णा
ॐ सहनानुतो सहनभुनक्तु सह वीर्यं करवावहै
तेजस्विनावधीतमस्तु
माविद्विषावहै ॐ शान्ति शान्ति शान्तिः।
उत्तमम्। तर्हि एतावत्पर्यन्तं वयं कस्मिन् पाठपर्यन्तम् अभवत्? पाठसङ्ख्या जानाति वा? षष्ठः पाठपर्यन्तम् अभ्यासः अभवत्। बालदर्शकपुस्तकम् अस्ति तव पुरतः? अस्ति वा न? अत्र दृश्यते वा बालदर्शकपुस्तकम्? अत्र दृश्यते? इदानीं पटले दृश्यते वा? अर्णा, पटले दृश्यते पाठः? बालदर्शपुस्तकस्य पाठं दर्शयामि, पश्यतु। पञ्चमः पाठः दृश्यते वा? हा, अत्र अश्वः अस्ति खलु, चित्रं दृश्यते खलु?
I don't have my book.
No, but I'm showing you to you on the screen now. Are you able to see it on the screen?
Yes.
So where is your pustakam?
I left it. I was traveling. I forgot to take it.
ओके, अस्तु अस्तु, अत्र इदानीं दर्शयामि, पश्यतु। अत्र पटले दृश्यते खलु पुस्तकम्? आं खलु, यु आर् एबल् टु सी न? आं, तर्हि किमस्ति, पठति वा? पाठस्य क्रमाङ्कः कः? वट् इस् द नम्बर् आफ् द पाठ? केन् यु रीड् इट्? केन् यु रीड् इट्? What is the heading? Panchamaha?
Panchamaha?
Pathaha. Agar ke masti? Ashvaha. Patatu?
Ashvaha.
Anantram? Rathaha.
Rathaha.
रत्त न महापराण आवश्यकं, रथः तथ रथः पुनः पुनः एकवारं पुनः उच्चैः लौड्लि
रथः
रथः त न रथः
रथः
आम् उत्तमम् अयम् अश्वः
अयम् अश्वः
अयं द्वितीयवाक्यं किम् अयम्
अयं रथः
अयं रथः अनन्तरं किं तृणं पठतु तृणं
तृणं
तारथिः
तारथिः
सारथिः
सारथिः
तीन यु आर् सेयिङ्ग् इट् इस् नाट् इट् इस् थ थ खलु सेकेण्ड् वर्ण त थ द ध जानाति खलु सुसारथिः वदतु
सारथिः
आम् उत्तमं गृहं
गृहं
नृपतिः
नृपतिः
नृपतिः आं नृपतिः
नृपतिः
नृपतिः इत्युक्ते राजा किङ्ग् जलं
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 जलं जलं
कपिः
कपिः
कपिः कपिः इत्युक्ते कपिः जानाति वा कः अस्ति कपिः जानाति मङ्की कपिः खलु आम् कपिः कपी कपयः अस्ति खलु Have you read this chapter before? Arna?
Hmm?
Have you read this chapter from the textbook before?
No.
Huh? No. No, Ashto. Because this was taught almost, I think, 2 weeks or 3 weeks back. Hmm. So, Sarathihi, in fact, 1 month before, Sarathihi Ratham Nayati,
Sarathihi,
okay, what I will do is I'll show you the Darshika first. So, this is not, this you have not learned this, na? You are not able to make sentences on your own here, na? This is not clear to you, right? You have gone through the recordings, right? You must have seen this Darshika in the recording. Do you remember something, Anna? In the recordings, you must have seen this Darshika, right? Do you remember seeing these pictures?
No.
Can you be a little louder? Huh?
No.
What happened? Can you read now? I am Pathati. Huh? Imau Pathataha.
Ime
Pathanti. I will read you, repeat after me. I am Pathati. Imau Pathataha. Ime Pathanti. Nana Pathanti Astiva. Pathanti. Tvam Pathasi. Yuvam Pathataha.
Yuyam Pathatha.
Aham Pathami. Avam Pathavaha. Vayam Pathamaha. Now, in the Baldarsha Pustakam, there are so many Kriyapadam. Okay, I'll give you a new Kriyapadam. Okay, instead of Pathati, can you make the changes in the same Vakyam there? Khadasi. Khadati iti chinotu. Khada. Dhatu khada. Kriyapadam khadati. So, can you make 9 sentences? Nava Vakyani Rachayati va? Yatha, ayam khadati. Imau khadataha. Can you do such sentences? Arna?
I am khadati. Imau khadati.
Khadataha.
Ime khadanti.
Ime khadanti. Uttamam. Agre. Madhyam Purushe. Tvam khadasi. Yuvam khadataha. Khadataha. You are not able to read this tha. Tha asti khalu. Khadataha.
Khadataha.
Yuyam khadatha. No, there is no visargaya. Yuyam khadatha. Aham khadami. Then, Avam khadavaha. Vayam khadamaha. Okay. So you have made these 9 sentences. When to use tvam? Do you remember in the recording what I have said? When to use tvam?
Tvam.
Yeah, when do we use the vakyam tvam pathasi? Can you explain? Do you remember from the recordings? No? Okay, I'll tell you. Okay, so suppose somebody is reading in front of me. For example, just like you, Aruna is now reading in front of me, right? So then I can say tvam pathasi. That means you are reading right now, you. Tvam is like in the English you say you, right? So tvam pathasi. Yuvam pathatah. That means suppose there are two girls sitting in front of me and reading. What I will say? Yuvam pathatah. And if there are many girls or children sitting in front of me and reading, what I will say? Yuyam pathatah. What I will say? Yuyam pathatah. And for yourself, suppose Anna is reading, what Anna will say for herself? Anna will say, aham pathami. What you will say? Say, aham. Say.
Your voice is breaking. I can't hear you.
Now, can you hear clearly now? Now?
Ma'am.
Is it okay now?
Your voice is breaking. I can't hear you.
But I am able to hear you clearly. Ek nimisha. Now, are you able to hear me clearly? Aham pathami.
Yeah.
Can you say it? Okay, repeat after me. Aham pathami.
Aham pathami.
So, Aruna will say for herself. When you are reading, what you will say for yourself? Aham pathami. Say.
Aham pathami.
And if you and one of your friend is reading, then what you will say? Avam pathava. Avam pathava. Avam pathava. Puna avam pathava. Say?
Avam pathava.
And suppose you and many of your friends are reading, what you will say? Vayam. Say, vayam pathamaha. Say.
Vayam pathamaha.
So, when you are saying vayam pathamaha, you are also reading, right? In that group, right? Aruna?
Yes.
But when you say yuyam pathatah, what happened? Keep up what? Shwete?
Hello?
Can you hear me?
Yeah.
Keep up what?
You're frozen.
You're not able to hear me?
You're frozen.
Okay, I will log out and come again. Just a minute.
Okay.
I'll log out and come again. Just a minute. Okay, now are you able to hear Arna?
Yes.
Okay, so you're able to see the screen?
It's loading.
Just a minute then.
Now it's come.
Okay. So, when do you say Vayam Pathamaha, are you in that group where people are reading? Is
yes.
it? But when you say yuyam pathatha, when you say yuyam pathatha, you are talking about the others who are reading, okay? You are not in that group. You are not doing that action of reading. Avagatamva. So when you say one girl who is sitting in front of you and reading, so you say tvam pathasi. If there are two girls, you'll say yuvam pathatha. You are not reading. You are seeing the other two girls reading, okay? Okay? That time you'll say yuvam pathatha. And then you say all the other children reading in front of you, what you will say? Yuyam pathatha. Avagatam va?
Yuyam.
Got the difference?
Yes.
So when you're saying Madhyam Purusha, you are not doing that action. Somebody else is doing the action and you are observing it. But when you say Aham, you are also doing it, right? Aham Pathami, Avam Pathavaha, Vayam Pathamaha. Avagatam? Now I'll give you some more Kriyapadam. For example, Gayati. Can you make nice sentences? Ayam Gayati.
Gayati imam gayatah
imam
gayanti
imam gayanti
me gayanti
or agre tvam gayati
Tvam Gayasi
Yuvam Gayathaha Yuvam
Gayathaha
Yuyam Gayatha Say
Yuyam Gayatha
Gayatha.
Yuyam Gayatha.
Aham Gayami.
Aham Gayami.
Avam Gayavaha.
Avam Gayavaha.
Vayam Gayamaha.
Vayam Gayamaha.
Okay. So, now, I'll give you one more Kriyapadam. Charati, okay? I am Charati. Can you make the sentences?
I am Charati. Imau Charataha. Ime Charanti.
Ime Charanti. Uttamam, agre? Madhyam Purushe?
Tvam Charati.
Yuva Charataha
Yuva Charataha
Yuyam
Yuyam
Charataha
Charataha
Aham charami.
Yuyam charatha. Aham. Aham charami. Aratha. Ava.
Aham.
Aham.
Charavaha.
Charavaha. Vayam charamaha.
Charamaha. इदानीम् अत्र कानिचन प्रश्नवाचकशब्दान् विषये प्रथमविभक्ति तथा द्वितीयविभक्ति दत्ता अस्ति तर्हि पुल्लिङ्गे प्रातिपदिकमस्ति किं प्रातिपदिकं किमस्ति किं दिस् इस् द रूट् वर्ड् किम् इति प्रातिपदिकम् ओके तत्र कः कौके वदतु कः कौके वदतु आम् कं कौकान् वदतु अनन्तरं स्त्रीलिङ्गे काकेकाः
काकेकाः
प्रथमा रिपीट् आफ्टर् जस्ट् रिपीट् आफ्टर् मी काकेकाः प्रथमा प्रथमा से
प्रथमा
काम केकाः द्वितीया द्वितीया
काम केकाः द्वितीया
उत्तमं नपुंसकलिङ्गे किमस्ति किं केकानि प्रथमा
केकानि किं केकानि
प्रथमा
किं के
पुनः किं के काणि द्वितीया वदतु किं के काणि द्वितीया
किं के काणि द्वितीया
फार् एक्साम्पल् कः वी हेव् यूस् द वर्ड् कः बिफोर् न कः बालः कः गजः हू रैट् बट् नौ लेट् अस् सी हौ टु यूस् द द्वितीया विभक्ति विल् सी हौ दीस् these words are used okay look at this picture ime kapayah phalani khadanti patatu
ime kapayah phalani khadanti
ke babat na samyak shruyate arana shruyate va कपयः फलानि खादन्ति
फलानि खादन्ति
अस्मिन् वाक्ये कोऽपि प्रश्नः वा डु यु हेव् एनि क्वशन् इन् दिस् वाक्यं हेव् यु अण्डर्स्टाण्ड् दिस् देर् आर् मेनि वाट् मङ्कीस् कपिः कपी कपयः वदतु एकवारं कपिः कपी कपयः वदतु
कपी कपिः कपयः
पुनः कपिः
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 से वन् बै वन् कपिः
कपिः
कपी
कपी
कपयः
कपयः
ओके फार् एक्साम्पल् ऐ विल् शो यु दिस् स्क्रीन् नौ हियर् in this there are some tables okay here can you see munihi muni munayah can you see this ikaranta muni shabdah pumlinga can you see the screen munihi muni munayah
munayah
kapihi kapi kapayah
कपिः कपिः कपयः
सेकेण्ड् टैम् द्वे दर् इस् विसर्ग दर् इस् नो विसर्ग द्विवचनं खलु कपिः कपी कपयः
कपिः कपी कपयः
उत्तमं वेरि गुड् नौ इफ् ऐ से सारथिः वाट् इट् विल् बि सारथिः सारथी एकवारं पुनः वदतु सारथिः
सारथिः सारथी सारथः
साधु साधु उत्तमम् इदानीं नृपतिः किं नृपतिः वदतु नृपतिः
नृपतिः नृपतः
न न न न एकनिमिष नृपतिः वदतु नृपतिः वदतु नृपतिः
नृपतिः
नृपती
नृपती
नृपतयः
नृपतयः
पुनः कपिः
कपिः कपिः कपयः
इदानीं नृपतिः वदतु
नृपती
नृपतिः
नृपतिः नृपती नृपतय
नृपतयः नृपतयः उत्तमम् So can you see in the Bal Darshaka Pustakam here? Here, can you see the Sarathi word here? Can you see the Sarathi hi? Drishyate va? Aam vada, Sarathi drishyate. Charioteer, the one who rides the chariot. Rathaha asti, khalu rathaha. Rathaha asti, who rides the rathaha? Tasya nama Sarathi hi. Then kapayaha, can you see this kapayaha? This is Prathama Vibhakti Bahuvachana. एक वन मंकी कपी ही टू मंकीज कपी कपी टू मंकीज कपी एंड बहुवचनम बहुवचनम मेनी मंकीज
कपी ही
ना 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 पश्यतु इदानीं वयं अभ्यासं कृतवन्तः खलु कपी ही एक वचनम कपी द्विवचनम कपयः बहुवचनम See, I'll show you here once again. Munihi, muni, munayaha. One muni. Two muni. Many munayaha. Similarly, what happened for kapihi? Can you say now? Kapihi.
Kapayaha.
So kapayaha is many monkeys, right? Similarly, if I say sarathihi, एकवचनं सारथिः द्विवचनं सारथी बहुवचनं सारथयः अवगतम् सिमिलर्ली फोर् कपि बहुवचनं विल् बि कपयः केन् यु सी दिस् इयर् कपयः केन् यु सी दिस् सेण्टेन्स् इयर् सो इन् देट् कपयः इस् वाट् दिस् वर्ड् कपयः इस् इट् सिङ्गुलर् द्विवचनम् और् बहुवचनम् बहुवचनम् अवगतं वा हेव् यु गाट् द मीनिङ्ग् नौ तर्हि इमे कपयः फलानि खादन्ति पठतु
फलानि खादन्ति
नौ केन् यु मेक् दिस् सेम् वाक्य इन् वन् वचनम् इमेजिन् देर् इस् ओन्ली वन् मङ्की ईटिङ्ग् फ्रूट् हौ विल् यु से द वाक्यम् इन्स्टेड् आफ् इमे वाट् विल् हेपन् अयं
खलु
अयं कपिः
अयं कपिः फलं
फलम् थिङ्किङ्ग् हीस् ईटिङ्ग् मेनि फ्रूट्स् सो फलानि विल् रिमेन् एस् इट् इस् वन् मङ्की इस् ईटिङ्ग् मेनि फ्रूट्स् इन् फ्रण्ट् आफ़् हिम् ओके सरि अयं कपिः फलानि
फलानि
खादति वन् कपि विल् ईट् रैट् खादति एकवचनं क्रियापदस्य अपि एकवचनं पश्यतु अत्र अयं पठति तर्हि अयं खादति खलु अयं कपिः फलानि खादति बिकास् इट् इस् वन् मङ्की इट् विल् खादति इदर् आर् मेनि मङ्कीस् वाट् विल् बि द क्रियापदं खादन्ति बहुवचनम् अवगतम् डिड् यु गेट् दिस् पायिण्ट् अस्तु तर्हि प्रश्नः कपयः कानि खादन्ति रीड् द क्वशन् रीड् द क्वशन् कानि खादन्ति
कपयः कानि खादन्ति
न फलानि फलं फले फलानि फलम् इस् नपुंसकलिङ्ग खलु तर्हि प्रश्नः किं भवेत् नपुंसकलिङ्गे प्रश्नः किम् अस्ति किं के कानि प्रथम द्वितीयविभक्ति अपि द्वितीयविभक्ति अपि के किं के कानि
किं के कानि
तर्हि अत्र किं भवति कपयः कानि खादन्ति सो दिस् कानि हियर् वर्ड् कानि हियर् इस् दिस् द्वितीयविभक्ति द्विवचनं मेन् बहुवचनं द्वितीयविभक्ति बहुवचनं किं के कानि किं के कानि सपोज़् इस् ईटिङ्ग् ओन्ली वन् फ्रूट् वाट् इस् द क्वशन् कपिः किं खादति इफ् इट् इस् ओन्ली वन् फ्रूट् हि विल् से किं खादति बट् देर् आर् मेनि फ्रूट् सो वाट् विल् से कानि
खादति
ओके सो नौ कपयः कानि खादन्ति दिस् इस् द क्वशन् फार् मेनि आफ़् दीस् मङ्कीस् कपयः कानि खादन्ति?
कानि खादन्ति.
उत्तरं किम्? वाट् इस् आन्सर्? कपयः अन्यथा इमे कपयः फलानि
खादन्ति.
उत्तमम्. अग्रे चित्रं पश्यतु. अश्वः सन्ति. एकः अश्वः, अश्वौ टु हार्सेस्, अश्वौ मेनि हार्सेस्, अश्वाः खलु,
अश्वौ अश्वे अश्वाः,
अश्वः अश्वौ अश्वाः, तर्हि अश्वाः बालान् वहन्ति. इमेजिन् दीस् हार्सेस् आर् केरिङ्ग् मेनि चिल्ड्रन्. ओके, इमेजिन् तर्हि अश्वाः बालान् वहन्ति. वदतु वाक्यम्.
अश्वः बालान्
वहन्ति.
वहन्ति
अश्वाः बालान् वहन्ति. पुनः
अश्वाः बालान् वहन्ति.
प्रश्नः, अश्वाः कान् वहन्ति?
अश्वाः बालान् वहन्ति.
यु आल्सो रीड् द क्वेश्चन् नौ. रीड् द क्वेश्चन्. अश्वाः कान् वहन्ति?
अश्वः.
नौ रीड् द क्वेश्चन्. अश्वः
कानि वहन्ति?
न न न, कानि न, अश्वः कान् वहन्ति. रीड् द क्वेश्चन्.
अश्वः कान् वदन्ति?
वहन्ति.
वहन्ति.
अश्वः कान् वहन्ति? उत्तरम्, अश्वाः बालान् वहन्ति.
अश्वाः बालान् वहन्ति.
बालान् वहन्ति. उत्तमम्. नौ फ्रम् हौ दिस् बालान् वर्ड् हेस् कम्? केन् यू मेक् एन् अण्डर्स्टाण्डिङ्ग्? ऐ शो यू विभक्ति टेबल्. ऐ शो यु विभक्ति टेबल्. अत्र रामशब्द दृश्यते खलु, रामः रामौ रामः दृश्यते,
रामः रामौ रामः.
तर्हि द्वितीयविभक्ति किं? रामं रामौ रामान्. वदतु.
रामं रामौ रामान्.
इदानीम् इन्स् आफ् राम टेक् बाल. तर्हि बालः बालौ बालाः प्रथमा से
बालः बाल.
वदतु. बालः बालौ बालाः प्रथमा.
बालः बालौ बालाः
प्रथमा.
प्रथमा.
बालं बालौ बालान् द्वितीया.
बालौ बालं बालान् द्वितीया.
से स्लोलि. बालं
बालं
बालौ
बालौ
बालान् द्वितीया.
बालान् द्वितीया.
नौ इन्स् आफ् बाल टेक् से अनदर् वर्ड् लैक् वृक्ष. किं से नौ? वृक्षः वृक्षौ वृक्षाः. से
वृक्षौ वृक्षौ वृक्षाः.
प्रथमा.
प्रथमा.
वृक्षं
वृक्षं
वृक्षौ
वृक्षौ
वृक्षान् द्वितीया.
वृक्षान् द्वितीया.
ओके, टेक् अनदर् वर्ड्. रथ. टेक् द वर्ड् रथ.
रथ रथौ रथाः.
प्रथमाविभक्तिरूपं किं? रथः भवति खलु, प्रातिपदिकं. द रूट् इस् लैक् अकारान्तर् रथ शब्द. बट् द प्रथमाविभक्ति इस् रथः. यथा राम, अत्र रामः. रथः रथौ से रथाः प्रथमा
रथाः प्रथमा
रथं रथौ रथान् द्वितीया
रथं रथौ रथं द्वितीया
रथान् रथान् द्वितीया
रथान् द्वितीया
आम् सो फोर् एक्साम्पल् इफ् इट् इस् नौ प्रातिपदिकम् इस् बाल देन् वट् विल् बि प्रथमा विभक्ति अण्ड् द्वितीया विभक्ति रूपाणि केन् यु से इफ् इट् इस् बाल देन् वट् विल् हेपन् बालः
बालः बालौ बालः बालौ बाला
नो 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 एक मिनट यू आर सेइंग द प्रथमा विभक्ति और द्वितीय विभक्ति सो द आंसर विल बी व्हाट बालः से
बालः
बालौ
बालौ
बालाः प्रथमा
बालाः प्रथमा
बालं
बालं
बालौ
बालौ
बालान् द्वितीया
बालान् द्वितीया
नौ लेट् अस् लुक् एट् दिस् चित्र तर्हि अश्वाः बालान् वहन्ति खलु वेर् इस् दिस् वर्ड् बालान् द बालान् हेस् कम् एस् द्वितीया विभक्ति बहुवचनं खलु बालः बालौ बालान् खलु सो द हार्सिस् इस् केरिङ्ग् मेनि चिल्ड्रन् हार्सिस् आर् केरिङ्ग् मेनि चिल्ड्रन् सो वाक्यम् इस् वाट् अश्वाः बालान् वहन्ति हव् यु अण्डर्स्टुड् द वाक्यम् नौ रीस् अ क्वशन् अश्वाः
अश्वाः
कान् वहन्ति
कान् वहन्ति
उत्तरम्
अश्वाः बालान् वहन्ति
उत्तमं तर्हि फ्रोम् वेर् दिस् वर्ड् कान् कम् लेट् मी शो यु पुल्लिङ्गे बालः बालौ बालः पुल्लिङ्ग अस्ति खलु बालः सो कः कौ के प्रथमा कं कौ कान् सो केन् यु सी दिस् द्वितीयविभक्ति बहुवचन कान् यर् ऐ एबल् टु सी दिस् कान् करेक्ट् सो वाट् हेपेण्ड्
दृश्यते
किं दृश्यते खलु कान् You are able to see, right?
Yes.
So this Kaan, this Prashna, in the question, that word Kaan has come, Kalu. Ashwaha Kaan Vahanti. So from where that word has come, Kaan? Pullinge, Dvitiya Vibhakti Bahu Vajram. Avagatamba? Arana? Have you understood it is Pullinge? द्वितीय विभक्ति बहुवचनं वाट् इस् इट्
पुल्लिङ्गे
द्वितीय विभक्ति बहुवचनम् ओके लेट् मी शो यु द चित्र वन्स् अगेन् तर्हि अश्वः अश्वाः अत्र अश्वः कान् वहन्ति अश्वाः बालान् वहन्ति नौ इन्स्टेड् आफ् मेनि चिल्ड्रन् लेट् अस् लुक् एट् सिङ्गल् एकवचनं if suppose you have one horse and one horse is carrying one child then what should be the vakyam ashvah balam vahati
balam vahati
from where the word balam has come can you I'll explain to you once again atra look at the dvitiya vibhakti balam balau balan khalo so if it is one child ashvah balam vahati if one horse is carrying two children, what will be the one sentence? Ashvaha balau vahati. One horse is carrying many children, what should be the vakyam? Ashvaha balan vahati. Avagatam? So look here now. There is one horse and one horse is carrying one girl now. Okay. For the girl, what if you should say bala? Hello? What is the word for girl?
Bala.
Bala. So I'll show you the Vibhakti table once again. Okay, can you see this word Sita here? Sita?
Uh-huh.
Ah. Can you say Sita, 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 ha, Prathama?
Sita, 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 ha.
Prathama.
Prathama.
Sitam, Sita.
Sita, Sita,
Sita, ha, Dvitiya.
Sita, ha, Dvitiya.
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 Not Tritiya, Dvitiya. We have not studied Tritiya yet with you. Dvitiya.
Tritiya.
Ayyo. Not Tritiya, my dear. The, Dakara, not Takara. Dvitiya.
Tritiya.
Ayyo, yo. Wait, I'll show you the vakyam. Wait a minute, yeah. I will type now, read it, okay? Are you able to see the screen? I will type it. Can you see this word now? I'll put it in some other rang color. Can you see it? This in red? What is written in red? This is not... What's the problem? It is not the, it is the Dvitiya. Once again? Dvitiya. No, say the.
Dritiya.
Say the. Don't say the. Say the.
The.
Ah, Dvitiya. Dvitiya.
Dvitiya.
Ah, something very close. Okay? Dvitiya.
Dvitiya.
Astu. See, what I was trying to tell you here is. Tari, let's come back to the Vibhakti table. Tari here, what you have is Sita, 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 ha, Prathama. Sitam, Sita, Sita, ha, Dvitiya. Instead of, now look, only concentrate on the Dvitiya Vibhakti. Only concentrate on the second line, okay? Sitam, Sita, Sita, ha. Now if you take Bala, what will happen? If you take Bala, what will happen? Balam, say, Balam.
Bala.
Bale.
Bale.
Balaha Dvitiya.
Balaha Dvitiya.
Okay. So it is not Tritiya. Dvitiya, you just tell your mother to make you abhyas for this word Dvitiya. Okay? Tell your mother later on. Astu. Tari, what happens? Ashvaha balam vahati to come, right? For Dvitiya Vibhakti, ek vachanam is what? Balam, right? Instead of bala, suppose the word is mala. What will be the Dvitiya Vibhakti ek vachanam group form? Malam, hello?
Malam.
इफ् सपोज् द वर्ड् इस् वाटिका, वाट् विल् बि द द्वितीया विभक्ति एकवचनं? वाटिकां. से इफ् द वर्ड् इस् रमा, वाट् विल् बि द द्वितीया विभक्ति एकवचनं? रमां. रैट्? अवगतं वा? सो फार् बाला वाट् विल् बि द द्वितीया विभक्ति एकवचनं? बालां. से बालां. ओके, सो नौ लुक् हियर्, वाट् इस् द अश्व डूइङ्ग्? ही इस् केरिङ्ग् दिस् गर्ल्, रैट्? तर्हि अश्वः बालां वहति, खलु? ओके, नौ लुक् एट् द सेकेण्ड् वाक्य. अश्वौ, रीड् द सेकेण्ड् वाक्य. अश्वौ
अश्वौ बालौ वहन्ति.
वहतः. आम्, अश्वौ बालौ वहतः, खलु? एण्ड् रीड् द थर्ड् वाक्यम्. अश्वः उत्तमम् उत्तमं, बालान् वहति. नौ इन्स् आफ् बाला टेक् महिला, टेक् द वर्ड् महिला. सो वाट् विल् बि द वाक्यम्? अश्वः महिलां वहति. से नाट् वहन्ति, वहति. ओन्लि वन् वर्ड् इस् देर्, रैट्? सो एकवचनं वहति. Now, if these two horses are carrying two girls or two mahila, two women, what will be the vakyam? Ashwau mahilau
vahataha.
And bahuvachanam will be what? If many horses are carrying many women, then what you will say? Ashwaha mahilan
vadanti.
अश्वः महिलान् वहन्ति. अवगतं वा? नौ केन् यु से थ्री वाक् सेण्टेन्सेस् वन् आफ्टर् दि अदर्? एकवचनं, देन् बहुवचनम् एण्ड् द्विवचनम् एण्ड् देन् बहुवचनं. द वर्ड् इस् बाला. से द वर्ड्स् आर् रिटन् हियर्. अश्वः
बालां
वहति. द्विवचनं
अश्वौ बालौ वहतः.
टु बाय्स्, हा, टु चिल्ड्रन्. एण्ड् अश्वः
बालान् वहन्ति.
बालान् वहन्ति. नौ रिमेम्बर् दिस् बालौ वर्ड् इस् पुल्लिङ्ग. लुक् हियर्, this balau word, right? Ramau, the balau word will be here, right? Balam, balau, balan, right? Balau is dvivachanam for pullinga, but for strilinga what it will be? Balam, bale, balaha, right? So if the two horses are carrying two girls, then the vakyam would be ashvau bale bale vahatah. And if many horses are carrying many girls, then the vakyam would be ashvaha balaha vahanti. Please say once again. Ashvaha
ashvaha
balaha
balaha
vahanti
vahanti.
And if many horses are carrying many boys, instead of girls, if it is boys, then it will be ashvaha. Say
ashvaha
balan
balan
balan. Look here, like raman, similarly balan
balan
vahanti
vahanti.
Avagatam va? So similarly, the word mahila is a strilinga vakyam, right? So if one horse is carrying one mahila, then the vakyam would be ashvaha mahilam vahati. से
अश्वः महिला वहन्ते
महिलां वहति पुनः अश्वः
अश्वः
महिलां
महिलां
वहति
वहति
हाँ एंड इफ टू हॉर्सेस आर कैरिंग टू वुमेन देन अश्वो से
अश्वो
महिले
महिले
वहतः
वहतः
एंड इफ मेनी हॉर्सेस आर कैरिंग मेनी वुमेन अश्वाः
अश्वाः
महिलाः
महिलाः
वहन्ति
वहन्ति
So, Aruna, I request you to see the recordings once again. Can you do that before the next class?
Okay.
Because, see, you have got a gap of many days in between, right? And therefore, you are not able to catch up. In fact, what I am doing in front of you is not the current Adhyasa. We have already finished the sixth Patha. Right? I am just doing fifth Patha in front of you now.
Okay.
Can you read this? Ashwaha Trunam Charanti. Read this.
Ashwaha Trunam.
Ashwaha. Bahuvachana.
Ashwaha
Trunam.
Trunam Charanti.
Charanti. Prashna Kim. Ashwaha Kim Charanti. Say the question.
Ashwaha Kim Charanti.
Then. Harihi Gruham Gacchati.
Harihi Gruham Gacchati.
Prashnaha, Kaha Gruham Gacchati?
Kaha Gruham Gacchati?
Can you read this now? This boy is looking at a river. There is a river here, okay? What is he saying? Iyam Nadi. What is the boy saying?
Iyam Nadi.
Now, Balaha, and he's pointing out to the river, right? He's pointing out his finger to the river. So, Nadi is a pulling or thrilling or napunsakalinga shabda? Nadi? Nadi is what? Pulling or thrillinga?
Thrillinga,
you know? No, strilinga, nadi, no, strilinga. Sorry. In strilinga, what is the prashnavachaka shabda? Kim shabdasya rupani kani? Ka ke kaha prathama, kam ke kaha dvitiya. Right? So, kam. So, kam darshayati, anyata kam suchayati, balaha kam suchayati, uttram balaha nadim suchayati. Because it is nadi strilinga padma. The dvitiya ekvachanam is what? Kam, right? Can you see this? Kam. What is the question? Balaha kam suchayati. Balaha nadim suchayati is the answer. Have you got it? And suppose the boy is pointing out to many rivers. Then what is the question? Balaha kaha suchayati. Then the question would be kaha. If he is pointing out to many rivers, the question would be Balaha Kaha Suchayati Uttara Balaha Nadihi Nadihi Suchayati. Then the answer would be Balaha Nadihi Suchayati. See, look here. I'll show you the word. Can you see this here, Nadi Shabda? Can you see Nadi? Arna, can you see this Nadi Shabda? Tari Nadi Nadyav Nadyah Prathama, Nadim Nadyav Nadihi Dvitiya, right? So Dvitiya Bhavachanam is what? Nadihi. So Ekvachanam is Nadim, Bhavachanam is Nadihi. So in this sentence, if the boy is pointing out to many rivers, then the Vakyam would be Balaha Nadihi. Suchayati. What it would be?
Bala
Nadi He is pointing out to many rivers. And if it is, he is pointing out to only one river, then the vakyam is Balaha Nadim. Can you see this Dvitiya Ekvachanam? Nadim. Balaha Nadim Suchayat. Okay, Anna, we'll stop here. Just a minute, I'll stop the recording. Mangalam, Shanti Mantram Vadati Va? Anna? Shanti Mantram Jana Vaktam Chaknoti Va? Anna? Shanti Mantram Vadati?
Om Purnamidam.
Om Purnamada. Say?
Om Purnamada.
Purnamidam. Purnamidam.
Purnamidam.
Purnat Purnamudachyate.
Purnat Purnamudachyate.
Purnasya Purnamadaya.
Purnasya Purnamadaya.
Purnamevavashishyate.
Purnamevavashishyate.
Om Shanti, Shanti, Shanti.
Om Shanti, Shanti, Shanti.
Okay. Hari Hari Om. Punar Melanaya. Just a minute.